एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अस्यैव वैशाखस्य दशमे दिवसे प्रतिनिधिसभायाः सदस्यस्य कृते सम्पन्ने उपनिर्वाचने बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रात् जनता समाजवादी दल नेपालस्य अध्यक्षः उपेन्द्र यादवः अष्टाविंशतिं सहस्राणि पञ्चदशाधिक चतुःशतं च मतानि प्राप्य विजयी संवृतो वर्तते। यादवस्य निकटतम प्रतिस्पर्धी जनमत दलस्य रामचन्द्र प्रसाद कुशवाहा त्रयोविंशतिम् सहस्राणि चतुर्त्रिंशदुत्तर शतत्रयम् च मतानि अलभत। अपर प्रत्याशी नेकपा एमाले दलस्य पुरूषोत्तम पौडेलः दश सहस्राणि षोडशाधिक शतद्वयम् च मतानि प्राप्तवान् वर्तते। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रात् प्रतिनिधिसभायाः सदस्य राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने चतुःपञ्चाशत् सहस्राणि षड्सप्तत्यधिकैक शतं च मतानि प्राप्य विजयी संवृतो वर्तते। एतस्य निकटतम प्रतिस्पर्धी नेपाली कांग्रेस दलस्य जितनारायण श्रेष्ठ एकादश सहस्राणि चतुर्दशाधिक द्विशतं च मतानि अलभत। नेकपा एमाले दलस्य रामप्रसाद न्यौपाने दश सहस्राणि षड्त्रिंशदुत्तर नवशतम् च मतानि प्रापत। नवनिर्वाचितः सांसदः राष्ट्रिय स्वतन्त्र दलस्य सभापतिश्च रवि लामिछाने अवोचत् समग्र देशः परिवर्तनस्य पक्षे दृष्टो वर्तते। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे सम्पन्ने उपनिर्वाचने अत्यधिक मतान्तरेण विजयी सभापतिः लामिछाने यो धन्यवाद ज्ञापन सभाम् सम्बोधयन् अवदत् जनतया प्रदत्तम् मतम् परिवर्तनस्य उद्घोषो वर्तते। एवमेव तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रात् नवनिर्वाचितः प्रतिनिधिसभा सदस्यः डा स्वर्णिम वाग्ले आत्मानं तनहुवासिनां गर्वानुभवयोग्यं सांसदं निर्माय प्रदर्श्यते इति प्रतिबद्धतां व्यक्तवान्। मुख्य निर्वाचनाधिकृतात् कोमल प्रसाद आचार्याद् गतदिने प्रमाणपत्रं गृह्णन् वाग्ले जनपदस्य विकासाय देशस्य समस्यानां सम्बोधनाय च आत्मना भूमिका निर्वह्यते इत्यभाषत। लुम्बिनी प्रदेशस्य प्रदेश प्रमुखेण अमिक शेरचन इत्यनेन द्वाभ्याम् द्व्यधिकैर्वा दलेर मिलित्वा सर्वकारस्य संघटनाय आहूतम् वर्तते। प्रदेश प्रमुखः शेरचन नेपालस्य संविधानस्य अष्टषष्ट्यधिक शततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण स्व वैशाखस्य चतुर्दशे दिवसे अपराह्नस्य चतुर्वादनस्य अभ्यन्तरे नवीन सर्वकारस्य संघटनाय आह्वयदिति प्रदेश प्रमुखस्य बुटवलवर्तिना कार्यालयेन ह्य प्रकाशितायम् विज्ञप्तौ उल्लिखितमस्ति। सर्वकारेण काष्ठमण्डप तराई मधेश द्रुत मार्गा योजनायाः अन्तर्गतायाः ललितपुरस्य खोकना स्थानीय भूमेः प्राप्तेः कार्यम् शीघ्रम् निर्णेतुम् निर्णीतम् वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य पश्चात् संचारकर्मिभिः भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला अवदत् खोकना क्षेत्रस्य भूमिप्राप्तेः समस्यायाः समाधानाय सहजीकरण समित्या कार्यम् अग्रे वर्धापितं वर्तते। अत परं शीघ्रमेव एतस्याः समाधानाय अतिरिक्त निर्णयो विधास्यते। उपप्रधान रक्षा मन्त्रिणः पूर्णबहादुर खड्गाविदस्य नेतृत्वे संघटितया सहजीकरण समित्या ललितपुर महानगरपालिकया सह सम्बद्ध पक्षैः सार्धं समन्वय सहकार्य विधाय कार्यं तीव्रं कारितमिति मन्त्री ज्वाला अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन सशस्त्र प्रहरीबल नियमावलिं संशोधयितुं भूमेः खण्डीकरणस्य विषयम् अर्थ प्रशासन समितौ प्रेषयितुं च निर्णीतमिति मन्त्री ज्वाला अगदत्। एवमेव उपवेशेन कृषि विकास मन्त्रालयस्य कृषि वस्तूनां गुणस्तर सम्बद्ध प्रस्तावं सम्बद्ध समितौ प्रेषयितुमपि निर्णीतमिति च मन्त्री ज्वाला असूचयत। प्रतिनिधिसभाया ह्यस्तनोपवेशेन राष्ट्रियसभातः ससन्देशं प्राप्तं सप्तसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीयं भ्रष्टाचार निवारण प्रथम संशोधन विधेयकम् आधृत्य विचार्यतामिति प्रस्तावः स्वीकृतो वर्तते। प्रधानमन्त्रिणः पुष्पकमल दाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा प्रस्तुतं विधेयकम् आधृत्य विहिते विमर्शने भागं गृह्णन्तः सांसदाः भ्रष्टाचारस्य न्यूनीकरणाय विधेयक क्रियान्वयने बलम् प्रादुः। उपवेशे सांसदाः देशे विकासाभावस्य महत्कारणं भ्रष्टाचारवस्तीत्यतः अनेन विधेयकेन भ्रष्टाचारस्य निवारण सामर्थ्येन भाव्यमिति अब्रुवन्। ह्यस्तनोपवेशे सभामुख देवराज घिमिरे सांसदस्य ढाका कुमार श्रेष्ठस्य पदरिक्ततायाः सूचनाम् अश्रावयत। सभामुख घिमिरे राष्ट्रिय स्वतन्त्र दलेन राजनैतिक दल सम्बद्धादि नियमस्य अनुसारेण ढाका कुमार श्रेष्ठ सांसद पदात् निष्कासित इति सूचना संघीय संसद सचिवालय प्रदत्तास्तीति अज्ञापयत। प्रतिनिधि सभायाः अपरोपवेश अद्य दिवा त्रिवादने वसति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड नवप्रवर्तनस्य क्षेत्राय उच्च प्राथमिकताम् प्रदाय सर्वकारेण कार्यम् विधीयते इति प्रतिबद्धताम् व्यनक्ति। ह्य राष्ट्रियाविष्कार केन्द्रस्य अध्यक्षस्य महावीर पुनित्यस्य समूहम् प्रधानमन्त्रिण बाल्वा तारवर्तिनम् निवासम् आहूय प्रधानमन्त्री प्रचण्ड विज्ञान प्रविधिभ्याम् महत्वम् प्रदायैव विकास समृद्धिभ्याम् गुणात्मकताम् दातुम् शक्यते इत्यतः नवप्रवर्तनस्य क्षेत्राय सर्वकारेण उच्च प्राथमिकता प्रदीयते इति अगदत। मेलने केन्द्रस्य अध्यक्ष पुन यात्री प्रवृत्तिनि नेपाले एव उत्पादितानि यातायात साधनानि संचालयितुम् अनुमति प्रदानाय नवप्रवर्तनस्य क्षेत्रे निवेशनस्य अभिवृद्धये च प्रधानमन्त्रिण ध्यानाकर्षणम् व्यदधात्। राष्ट्रपतेः रामचन्द्र पौडेलस्य स्वास्थ्यम् सुधारोन्मुखम् अस्तीति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। भारतस्य नयाँ दिल्ली वर्तिनी अखिल भारतीय आयुर्विज्ञान संस्थानम् प्रविश्य उपचाररतस्य राष्ट्रपतेः पौडेलस्य उपचारेण सम्बद्धानि कतिचित् परीक्षणानि सम्पन्नानि अन्यानि कानिचित् परीक्षणानि च जायमानानि सन्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्य प्रकाशितायम् विज्ञप्तौ ज्ञापितम् वर्तते। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला कथयति प्रतिनिधि सभायाः उपनिर्वाचनस्य परिणामम् स्वीकृत्य कांग्रेस दलस्य संशोधनम् आवश्यकम् वर्तते। विराटनगर विमानस्थले ह्य पत्रकारैसा नेता डाक्टर कोइराला उपनिर्वाचने नवीन दलाय मतदानम् नाम यूनाम् आकांक्षायाः अनुसारेण वर्तमानानि दलानि चलितानि न वर्तन्ते इति पुष्टि भवनम् अस्तीति अतर्कयत। नेता डाक्टर कोइराला उपनिर्वाचनस्य मतपरिणाम दलाभ्यन्तरे निर्ममम् समीक्षिष्यते इति चर्चयन् पराजयस्य दोषम् एकम् जनम् आक्षिप्य अन्येषाम् उन्मुक्तेः अवस्था नास्तीति अकथयत। नेकपा एमाले दलस्य केन्द्रीय समितेः उपवेशः वैशाखस्य अन्तिम सप्ताहे झापा जनपदे वस्ता। अस्यैव वैशाखस्य अष्टाविंशात् दिवसात् त्रिंशम् दिवसम् यावत् झापा जनपदे केन्द्रीय समितेः उपवेशः निर्धारितः इति दल केन्द्रीय कार्यालयस्य सचिवः डाक्टर भीम अधिकारी अज्ञापयत। उपवेशे निर्वाचनस्य दलस्य च जनस्तराभियान प्रवृत्तिषु विषयेषु विमृक्ष्यते इति सचिवः डाक्टर अधिकारी असूचयत। कोशी प्रदेशस्य मन्त्रिपरिषद ह्य उपविष्टेन उपवेशेन महत्वपूर्णम् निर्णयद्वयम् विहितम् वर्तते। उपवेशेन एतत् विक्रमवर्षीयम् कोशी प्रदेश वैद्युत शासन रणनीति मार्गचित्रम् स्वीकर्तुम् गत विक्रमवर्षीयम् प्रदेश पत्रकारिता पुरस्कार सम्मान कार्यविधिम् निरस्तीकर्तुम् च निर्णीतमिति मुख्यमन्त्रिणः संचार परामर्शदाता महेन्द्र विष्टः अज्ञापयत। नेपाल भारत शिला तैलीय पदार्थ पाचन इन्धन सम्बद्ध संयुक्त कार्य समूहस्य चतुर्थोपवेश ह्य काष्ठमण्डपे सम्पन्नोऽस्ति। उपवेशे शिला तैलीय पदार्थस्य क्षेत्रे पूर्वाधार विकासस्य प्राकृतिक वाष्पेन्धनस्य क्षेत्रे अतिरिक्ताध्ययनस्य च विषयेषु विमृष्टमिति उद्योग वाणिज्यापूर्ति मन्त्रालयस्य सहायक प्रवक्ता उर्मिला केसी अज्ञापयत। उपवेशे नेपालस्य पक्षता उद्योग वाणिज्यापूर्ति मन्त्रालयस्य सहसचिवेन राधिका आर्याले भारतस्य पक्षता शिला तैलीय पाचन इन्धन मन्त्रालयस्य सहसचिवेन ईशा श्रीवास्तवेन च नेतृत्वम् विहितम् आसीत्। काष्ठमण्डप महानगरपालिकया मार्गेषु अव्यवस्थित रूपेण विद्यमानानाम् तन्त्रीणाम् अपसारणाय सम्बद्ध कार्यालयेभ्य संघ संस्थाभ्यश्च 15 दिनानाम् समय प्रदत्तो वर्तते।